एस रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। सर्वकारेण प्रतिनिधिसभातः नागरिकता विधेयकं प्रत्यावर्तितं वर्तते। प्रतिनिधिसभायाः गतदिवसीयोपवेशेन गृहमन्त्रिणा बालकृष्ण खाँड इत्यनेन प्रस्तुतं 75-2000 नेपाल नागरिकता प्रथम संशोधन विधेयकस्य प्रत्यावर्तनात्मकः प्रस्तावः बहुमतेन पारितीकृतो वर्तते। उपवेशे विमर्शने उत्थितान् प्रश्नान् उत्तरयन् गृहमन्त्री खाँड नागरिकता प्राप्तेः वञ्चितेभ्यो नेपाली नागरिकेभ्यः शीघ्रातिशीघ्रं नागरिकतां प्रदातुं नागरिकता विधेयकं प्रत्यावर्तितमिति अवोचत। असौ नागरिकतायाः प्रदानाय उत्पन्नायाः वादायाः कारणेन अप्राप्त नागरिकतेभ्यो नेपाली नागरिकेभ्यः सहजरूपेण नागरिकतां दातुं विधेयकं प्रत्यावर्तितमिति धारणाम् उपस्थापयत। उपवेशेन सांसदैः कृष्णभक्त पोखरेल, भीम रावल, शेरबहादुर तामाङ, घनश्याम खतिवड़ा, प्रेम सुवाल, कृष्णप्रसाद दाहाल, विद्या भट्टराई, विमला विक, बीना कुमारी श्रेष्ठ, हृदय त्रिपाठी, बिन्दा पाण्डे, विमला विश्वकर्मा, झपटबहादुर रावल, कृष्णबहादुर राई इत्येतैः प्रस्तुताः विरोधस्य सूचना बहुमतेन अस्वीकृता आसीत्। उपवेशे सांसदाः भीम रावल, बिन्दा पाण्डे, विमला विश्वकर्मा, शान्ता चौधरी, झपटबहादुर रावलश्च विधेयके विद्यमानानां न्यूनता दुर्बलतानां सुधारं विधाय पारिति कर्तव्यमिति चर्चयन्तः अवोचन् विमर्शनस्य क्रमे विद्यमानं विधेयकं न प्रत्यावर्तनीयम्। उपवेशेन राष्ट्रियसभायाम् उत्पन्नं 67-2000 योगमायायुर्वेद विश्वविद्यालय विधेयकं विचार्यतामिति प्रस्ताव सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा देवेन्द्र पौडेलेन विधेयकमिदं विचार्यतामिति निगद्य प्रस्ताव प्रस्तुत आसीत्। प्रतिनिधिसभाया अपर उपवेश अस्यैव आषाढस्य 27 दिवसे सोमवासरे पूर्वाह्नस्य 11 वस्ता। प्रधानमन्त्री शेरबहादुर देउवा कथयति शिक्षण संस्थाः अन्तर्राष्ट्रिय पणे प्रतिस्पर्धन क्षमायाः गुणस्तरीय जनशक्तेः उत्पादनस्थलस्य रूपेण विकसनीयाः। कीर्तिपुरवर्तिनी त्रिभुवन स्मृति भवने त्रिभुवन विश्वविद्यालयस्य 63 वार्षिकोत्सवस्य अवसरे ह्य आयोजिते समारोहे विश्वविद्यालयस्य कुलपतिः प्रधानमन्त्री च देउवा अवासत समाजस्य सर्वैः वर्गैः समुदायैश्च सहजरूपेण सुलभरूपेण च उच्चशिक्षां प्राप्य स्वस्य प्रतिभा समाजस्य कृते उपयोक्तव्या। प्रधानमन्त्री देउवा उच्च शिक्षायाः अध्ययनाय विदेशं गन्तुकामानां विद्यार्थिनां कृते स्वदेशे एव तेषाम् अभिरुचेः आपणस्य याचनायासनुसारेण शिक्षाप्राप्तेः वातावरणं निर्माय राष्ट्रस्य विपुलं धनराशिं रक्षयितुम् अन्वरुणत। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्री विश्वविद्यालयस्य कुलपतिश्च देवेन्द्र पौडेलः गौरवशालीतिहासवतः त्रिभुवन विश्वविद्यालयात् उत्पादितया जनशक्त्या एव राष्ट्रस्य राजनीतिः प्रशासनं शिक्षा व्यवसायश्च निर्व्यूह्यमानाः सन्तीति चर्चयन् अगदत् विश्वविद्यालयस्य व्यवस्थापनस्य पदाधिकारिणाञ्च विरुद्धे पश्चात्तन दिनेषु अनुचित याचनाः पूरयितुं विद्यमानाः प्रयासाः समापनीयाः। प्रतिनिधिसभायाः विधिन्याय मानवाधिकार समितौ बलात्कारस्य न्यायिक प्रकरणे समयसीमायाः वर्धनाय सहमतिः धृता वर्तते। समितेः ह्य उपविष्टे उपवेशे यौनहिंसा विरुद्धस्य कतिचित् अधिनियमान् संशोधयितुं निर्मितं विधेयकम् आश्रित्य विहिते विमर्शने वयस्कस्य सम्बन्धे एकवर्षम् अवयस्कस्य सम्बन्धे वर्षद्वयञ्च समयसीमां वर्धयितुं सहमतिः धृतास्ति। समितौ धृतायाः सहमतेः अनुसारेण भविष्यति बलात्कारेण पीडितेन अवयस्केन 18 पूरणस्य अर्थात् वयस्क भवनस्य वर्षत्रयस्य अभ्यन्तरे न्यायिक निवेदनं पञ्जीकर्तव्यं भवति। वयस्कस्य सम्बन्धे घटनायाः वर्षद्वयस्य अभ्यन्तरे न्यायिक प्रकरणस्य पञ्जीकरणाय व्यवस्था विहिता अस्ति। एवमेव अपाङ्गतायुतैः ज्येष्ठ नागरिकैः मन्द मनस्थितियुतैश्च जनैः घटनायाः वर्षत्रयस्य अभ्यन्तरे न्यायिक प्रकरणस्य पञ्जीकरणाय व्यवस्था विहिता अस्ति। राष्ट्रपतिना विद्यादेवी भण्डारिणा 64-2000 वैक्रमाब्दं विरुद्ध संरक्षणाधिनियमं संशोधयितुं निर्मितं विधेयकं 45-2000 वैक्रमाब्दं बीजजाताधिनियमं संशोधयितुं निर्मितं विधेयकं च प्रमाणीकृते स्तः। संघीय संसदः सदनद्वयेनैव पारितीकृत्य एते विधेयके प्रमाणीकरणाय राष्ट्रपतेः समक्षं प्रस्तुते आस्ताम्। राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपाल सर्वकारस्य परामर्शानुसारेण त्रयाणां देशानां कृते आवासीय राजदूताः नियुक्ताः सन्ति। राष्ट्रपतिना भण्डारिणा ओमान देशाय डोरनाथ अरियालः, साउदी अरेबिया देशाय नवराज सुवेदी, श्रीलंका देशाय वासुदेव मिश्रश्च आवासीय राजदूतपदे नियुक्ताः इति राष्ट्रपति कार्यालयेन विज्ञप्तेर्माध्यमेन ज्ञापितं वर्तते। नेपाल सर्वकारेण मित्र राष्ट्रस्य जापानस्य पूर्व प्रधानमन्त्रिणः सिंजो आबे विदस्य निधने अद्य राष्ट्रिय शोकम् व्यंक्तुम् निर्णीतम् वर्तते। ह्यः सायम् उपविष्टेन मन्त्रिपरिषदः उपवेशेन जापान देशस्य पूर्व प्रधानमन्त्रिणः सिंजो आबे विदस्य सम्माने राष्ट्रिय शोकम् व्यंक्तुम् निर्णीतमिति प्रधानमन्त्रिणः शेरवादेवा विदस्य संचार संयोजकः गोविन्द परियार अज्ञापयत्। सर्वकारेण पूर्व प्रधानमन्त्रिणः आबे विदस्य निधनम् प्रति गभीरम् दुःखम् प्रकटितम् वर्तते। जापान देशस्य पूर्व प्रधानमन्त्रिणम् आवेविदम् गोलिकाम् प्ररित्य विहिता हत्या निन्दनीया स्थिति निगद्य नेपाल सर्वकारेण जापान सर्वकारम् जापान देशीय जनताम् तस्य परिवारांश प्रति समवेदना व्यक्ता वर्तते। प्रधानमन्त्रिणा शेरवादेवा विदेन जापान देशस्य पूर्व प्रधानमन्त्रिणः सिंजो आबे विदस्य निधनम् प्रति दुःखम् व्यक्तम् वर्तते। प्रधानमन्त्रिणा देवा विदेन ट्विटर सामाजिक सञ्जालस्य माध्यमेन जापान देशस्य पूर्व प्रधानमन्त्री सिंजो आबे न केवलम् विश्वस्य चर्चित नेता अपितु नेपालस्य सन्मित्रम् आसीदिति उल्लिखितम् वर्तते। प्रधानमन्त्रिणा देवा विदेन शोकस्य एतस्मिन् दुःखद क्षणे जापान देशस्य जनतायाम् शोकसन्तप्त परिवारेषु च समवेदना प्रकटित। रेडियो नेपालस्य प्रसारण निर्देशिका शैली पुस्तकम् च सार्वजनिकृतेस्तः। रेडियो नेपालले गतदिने आयोजिते कार्यक्रमे शैली पुस्तकम् विमुञ्चन समावेशी प्रशिक्षण समापन समारोहम् सम्बोधयन् च संचार सूचना प्रविधि मन्त्री ज्ञानेन्द्र बहादुर कार्की अवासत राष्ट्रस्यैव अग्रणी प्रसारण संस्थायाः रेडियो नेपालस्य गरिमाणम् महत्वम् च समयानुकूलतया अग्रे प्रवर्ध्य देशस्य सर्वेषु भाषाभाषिषु समुदायेषु भूभागेषु च प्रापणीये। मन्त्री कार्की विविधतायाम् एकता एव राष्ट्रस्य विशिष्ट परिचय स्थिति चर्चयन् अवदत् अमुम् राष्ट्रिय सम्पत्तेः रूपेण विकसय्य राष्ट्रिय सद्भावम् समृद्धम् विधातुम् रेडियो नेपालेन महत्वपूर्णा भूमिका निरूढा वर्तते। मन्त्री कार्की वर्तमान समयम् समाजस्य गतिशीलताम् च बुद्ध्वा रेडियो नेपालः सर्वेषाम् नेपालीनाम् हृदयस्थ प्रसारण संस्थायाः रूपेण विकसनीयः इत्यवदत्। संचार सूचना प्रविधि मन्त्रालयस्य सचिवः डाक्टर वैकुण्ठ अरियालः रेडियो नेपालस्य शैली पुस्तकेन प्रसारण शैल्यां परिष्कारः आनेष्यति इति विश्वासम् व्यक्तवान्। रेडियो नेपालस्य कार्यकारी निर्देशकः बुद्धिबहादुर केसी अवासत प्रसारणम् भिन्नम् स्वशैलीयुतम् च विधातुम् रेडियो नेपाल प्रसारण निर्देशिका शैली पुस्तकम् च अतिरिक्तम् सहयोगदायिके भविष्यत। रेडियो नेपालस्य नायब कार्यकारी निर्देशक खगेन्द्र खत्री शैली पुस्तकस्य निर्माणस्य क्रमे विज्ञानम् परामर्शानाम् अनुसारेण अग्रे वर्धितमिति चर्चयन् अगदत् पुस्तकेन प्रसारण सामग्रीषु एकरूपता आनेष्यते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली स्पष्टतया कार्ययोजनया दलस्य कार्याणि सक्रियतापूर्वकम् अग्रे वर्धयितुम् केन्द्रीय विभागान् निर्दिशति। काष्ठमण्डपस्य च्यासल वर्तिनी केन्द्रीय कार्यालये ह्य विभाग प्रमुखैः उपप्रमुखैः सचिवैश्च सह उपविष्टे उपवेशे अध्यक्ष ओली प्रतिनिधिसभा प्रदेश सभयोः निर्वाचने योजनाबद्ध रूपेण सक्रियाः भवितुम् कार्यकर्तृन् निर्दिशत। उपवेशे महासचिवः शंकर पोखरेलः विभिन्नानाम् विभाग कर्तव्यानाम् कार्याणाम् विषये समस्पष्टयत्। नेकपा एकीकृत समाजवादी दलस्य केन्द्रीय सचिवालय उपवेशे प्रतिनिधि सभायाः प्रदेश सभानाम् च आगामि निर्वाचन प्रवृत्तिषु देशस्य सामयिक विषयेषु विमृष्टम् वर्तते इति समाचाराः।